अथ चतुर्दशः सर्गः। समुहूर्तमिव ध्यात्वा मनसा चाधिगम्यताम् अवप्लुतो महातेजः प्राकारम् तस्य वेश्मनः। स तु संहृष्टः सर्वाङ्गः प्राकारस्थो महाकपिः। पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्, सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्, उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि, तथाम्रवणसम्पन्नान् लताशतसमन्वितान्, ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्, सप्रविश्य विचित्रान्ताम् विहगैरभिनादिताम्, राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम्, विहगैर्मृगसङ्घैश्च विचित्राम् चित्रकाननाम्, उदितादित्यसङ्काशाम् ददर्श हनुमान् बली, वृताम् नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः, कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्, प्रहृष्टमनुजाम् काले मृगपक्षिमदाकुलाम्, मत्तबर्हिणसङ्घुष्टाम् नानाद्विजगणायुताम्, मार्गमाणोवरारोहाम् राजपुत्रीमनिन्दिताम्, सुखप्रसुप्तान् विहगान् बोधयामास वानरः, उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः, अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः, पुष्पावकीर्णः शुशुभे हनूमान्मारुतात्मजः, अशोकवनिका मध्ये यथा पुष्पमयो गिरिः, दिशः सर्वाभिधावन्तम् वृक्षखण्डगतम् कपिम्, दृष्ट्वा सर्वाणि भूतानि वसन्त इति मे निरे, वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः, रराजवसुधा तत्र प्रमदेव विभूषिता, तरस्विना ते तरवस्तरसा बहुकम्पिताः, कुसुमानि विचित्राणि ससृजुः कपिना तदा, निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः, निक्षिप्तवस्त्राभरणाधूर्ता इव पराजिताः, हनूमता वेगवता कम्पितास्तेन गोत्तमाः, पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः, विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रयाद्रुमाः, बभूवुरगमाः सर्वे मारुतेन विनिर्धृताः, विधूतकेशी युवतिर्यथा मृदितवर्णका, निपीतशुभदन्तोष्ठीनखैर्दन्तैश्च विक्षता, तथा लाङ्गूलहस्तैस्तु चरणाभ्याम् च मर्दिता, तथैवाशोकवनिका प्रभग्नवनपादपा, महालतानाम् दामानि व्यथमत्तरसा कपिः, यथा प्रावृषिवेगेन मेघजालानि मारुतः, स तत्र मणिभूमीश्च राजतीश्च मनोरमाः, तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः, वापीश्च विविधाकाराः पूर्णाः परमवारिणा, महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः, मुक्ता प्रवालसिकता स्फाटिकान्तरकुट्टिमाः, काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः, बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः, नत्योहरुतसङ्घुष्टा हंससारसनादिताः, दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः, अमृतोपमतो याभिः शिवाभिरुपसंस्कृताः, लताशतैरवतताः सन्तानकुसुमावृताः, नानागुल्मावृतवनाः करवीरकृतान्तराः, ततोऽम्बुधरसङ्काशम् प्रवृद्धशिखरम् गिरिम्, विचित्रकूटम् कूटैश्च सर्वतः परिवारितम्, शिलाग्रहैरवततम् नानावृक्षसमावृतम्, ददर्शकपिशार्दूलो रम्यम् जगति पर्वतम्, ददर्श च नगात्तस्मान्नदीयम् निपतिताम् कपिः, अङ्कादिवसमुत्पत्त्य प्रियस्य पतिताम् प्रियाम्, जले निपतिता ग्रैश्च पादपैरुपशोभिता वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः पुनरावृत्ततो यां च ददर्श स महाकपिः प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिता तस्या दूरात् स पद्मिन्यो नानाद्विजगणायुताः ददर्शकपिशार्दूलो हनूमान् मारुतात्मजः कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा मणिप्रवरसोपानां मुक्तासिकतशोभितां विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननां प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृता ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृता काञ्चनीं शिंशपामेकां ददर्श स महाकपिः वृतां हेममयीभिस्तु वेदिकाभिः समं ततः सोपश्यद्भूमिभागांश्च नगप्रस्रवणानि च सुवर्णवृक्षानपरान् ददर्श शिखि सन्निभान् तेषां द्रुवाणां प्रभया मेरोरिव महाकपिः अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान् किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत् सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान् तामारुह्य महावेगशिंशपां पर्णसंवृता इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया अशोकवनिका चेयं दृढं रम्या दुरात्मनः चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता इयं च ललिनी रम्या द्विजसङ्घनिषेविता इमां सा राजमहिषी नूनमेष्यति जानकी सा रामा राजमहिषी राघवस्य प्रिया सती वनसञ्चारकुशला ध्रुवमेष्यति जानकी अथवा मृगशावाक्षी वनस्यास्य विचक्षणा वनमेष्यति साद्येह रामचिन्ता सुकर्षिता रामशोकाभिसन्तप्ता सा देवी वामलोचना वनवासरता नित्यमेष्यते वनचारिणी वने चराणां सततं नूनं स्पृहयते पुरा रामस्य दयिताचार्या जनकस्य सुता सती सन्ध्याकालमनाश्यामा ध्रुवमेष्यति जानकी नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता यदि जीवति सा देवी ताराधिपनिभानना आगमिष्यति सावश्यमिमां शीतजलां नदीम् एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने विलीनः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः।